इमा भूवाम् भ्रमजो मन्यमानायुभावतेन तुज्या अभूवन् वा अत्यतिन्द्रावरुणागशो वाम् येन स्मासिनम् भरतस्सखिभ्यः अजमो वाम् पुरुतमो रजेयाञ्छस्वत्तमपरासेजोहवीति सजोटाविन्द्रावरुणा वरद्भिर्दिवा पृथिव्यारेणुतम् गमम् मे अस्मे तदिन्द्रावरुणापशिष्यादस्मे रजिर्मारुतः सर्ववीरः अस्मान्वरोत्रेश्वरणीरवन् त्वस्मान् होत्रा भारते दक्षिणाभिः बृहस्पते जुगस्त नो हव्यानि विश्वदेव्य स्वरत्राणि दातुषे श्रुते वर्गे बृहस्पति मध्वरे गो नमस्य नाम्योजाजके ऋषभञ्चर्षणीना विश्वरोपपदाभ्यम् बृहस्पतिम्बरेण्यम् इयम् ते पूषन्नाघृणे सुष्ठुदुर्देवनव्यासि अस्माभिस्तुभ्यम् सस्यते ताञ्जोढस्वगिरम् मम बाधयन्ति मम बाधियम् मधुजुरे भजोषणाम् यो विश्वाभिपश्यति भुवनासम् च पश्यति स नः पूषा पिता भूवत्
तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धिजो यो नः प्रचोदयात्
देवस्य सवितुर्भजम् वा जयन्तः पुरम् जा भगस्य रातिमीमहे देवम् नरस्य वितारम् विप्रायज्ञेष्व वृत्तिभिः नमस्यन्ति धिजेषिताः सोमो जिगादिगादिभिद्देवानाम् वेदस्योनिवासतम् सोमा अस्मभ्यम् द्विपदे च दुष्पदे च पशवे अनमेवायुषस्करत् अस्माकमायुर्वर्धयन्नभिमादेः सह मानः सोमः सधस्थमासदत् आनो मित्रावरुणा घृतैर्गव्योदिमुक्षतम् मध्वारजांसि शुक्रतु पुरुषम् दानमो वृधा मह्ना रक्षस्य राजसः ग्राघिष्टाभिः सुजव्रता घृणानाजमदग्निनाजो नामृतस्य सीदतम् पातम् सोमावृता वृधा